ॐ सहनावतु सहनो भुनक्तु सह वीर्यं करवावहै तेजस्विनामधीतमस्तु मा विद्विषावहै शान्ति शान्ति
शान्ति।
So we will get started with today's session. Just give me a minute. Astu, so hope you are able to hear my voice.
Yes, sir.
Aam, Mahode.
Yeah, Aam.
Astu. Astu, Bhagini. So, last week we missed this conversation that is right here, or this one small story. We have completed the conversation, the previous conversation we have completed. We will try to do this katha. So, etam katam patatu. So, Ravindra Mahodaya, would you like to read this story?
Aam, Mahodaya. कश्चित् बालकः अस्ति। Can you hear me?
Yes, Mahodaya, please go ahead.
कश्चित् बालकः अस्ति, तस्य नाम सुधीरः। एकदा सुधीरः नगरं गच्छति, शिरस्त्राणि क्रीणति, तेषां विक्रयणार्थं तेषां विक्रयणार्थं ग्रामं गच्छति। मार्गे अरण्यम् अस्ति, सुधीरः श्रान्तः भवति, सः वृक्षस्य अधः उपविशति, शिरस्त्रपेटिकां पार्श्वे स्थापयति, तत्र एवं निद्रा करोति। तत्र केचन वानराः सन्ति, एकः वानरः सुधीरस्य समीपम् आगच्छति, स पेटिकां पश्यति, उद्घाटयति, एकं शिरस्त्रं गृह्णाति, शिरसि धारयति। सुधीरः सर्वाणि पुनः वृक्षस्य उपरि गच्छति, उपविशति। अन्ये अपि वानरः एतत् पश्यन्ति, ते अपि शिरस्त्रम् इच्छन्ति, अतः अधः आगच्छन्ति, शिरस्त्राणि धारयन्ति, वृक्षे उपविशन्ति। सुधीरः जागरितः भवति, पुरतः पश्यति, एकम् अपि शिरस्त्रं नास्ति, सः वानरान् पश्यति, शिरस्त्राणि तत्र सन्ति, सः दण्डं दर्शयति, वानरः वृक्षशाखाः दर्शयति, सुधीरः शिलाखण्डं क्षिपति, वानरः फलानि क्षिपन्ति, सुधीरः उपायं करोति, वानराः अनुकरणे शीलाः इति सः जानाति, सः स्वकीयं शिरस्त्रं भूमौ क्षिपति, सर्वे अपि वानराः शिरस्त्राणि क्षिपन्ति, सुधीरः सर्वाणि सङ्गृह्णाति, शीघ्रम् अन्यत्र गच्छति।
Samichinam, Mahodaya, bahu samichinam. So, we will just try to look at what we have understood here. Kim asti atra ekvaram pashyamaha. Kaschit balakaha asti. Ekaha, kaschit ityukte, there was one, that is what kaschit. Kaschit, सम बॉय कश्चित् बालकः अस्ति सो इट इज अस्ति तस्य नाम सुधीरः तस्य हिज नेम सो तस्य हियर इज षष्ठी विभक्ति राइट कश्चित् बालकः अस्ति तस्य नाम सुधीरः हिज नेम इज सुधीर और सुधीरः एकदा वन्स अपॉन ए टाइम सुधीरः नगरं गच्छति सो सुधीरः वेंट टू अ टाउन शिरस्त्राणि क्रीणाति शिरस्त्राणि इत्युक्ते हैट्स right something that is put on or the headgear right it is a headwear or headgear is what is shirastrani krinati he purchases tesham shirastrani vikrani te tesham vikrayanartham gramam gachati so he purchases and then what is vikrayanartham
sell
to sell, for selling, in order to sell, vikrayanartham, so the reason are for selling, that is what is, kreenati vikrayanati, so that are the two words here, tesham, so he wanted to sell them, so he goes to the gramam, gramam gacchati, marge, so marge, in the way aranyam asti aranyam ityukte
forest
aranyam ityukte forest sudhirah prantah bhavati prantah ityukte
tired
saha vrukshasya adah upavishati so vrukshasya adah इत्युक्ते वृक्षस्य अधः
डौन् द ट्री
करेक्ट् डौन् द ट्री उपविशति शिरस्त्रपेटिकां पार्श्वे स्थापयति सो सो शिरस्त्रपेटिका नौ हियर् वि हाव् शिरस्त्रपेटिकां So which vibhakti is this? Shirastra petikam parshve sthapayati.
Dvitiya.
Samichinam dvitiya vibhakti. Parshve sthapayati. So he places nearby. Tatra eva. So we have not seen eva. So we'll go through that as well. Tatra eva. So there only. Actually eva means only. There only nidram karoti. निद्राम् इत्युक्ते द्वितीया विभक्ति बहु समीचीनं द्वितीया विभक्ति अण्ड् इत्युक्ते स्लीप् तत्र केचन वानराः सन्ति केचन इत्युक्ते हियर् तम् वि हेड् सीन् टु वर्ड्स् लैक् दिस् वन् इस् कश्चित् वि हेड् कश्चित् रैट् सो वन् बाय् and we have tatra kechana kechana means again here sam vanaraha vanaraha ityukte we already know they are monkeys santi vanaraha asti vanaraha santi vanaraha asti vanaraha santi ekah vanaraha so please also note how the sentences and the kriya padam are also changing this exercise was only for present tense and past tense but also please note how the usage of the verb with respect to the object and the subject are being changed so here this is following the subject some places it follows the object okay so this is how we have to identify and we will know how they are being used ekah vanarah सुधीरस्य समीपम् आगच्छति वि हेड् रिटन् आगतवान् हियर् इन्स्टेड् रैट् वि हेड् रिटन् आगतवान् बट् इफ् इट् इस् प्रेसेण्ट् टेन्स् लट्लकारः आगच्छति सः कश्चन केचन कश्चन केचन केचन मीन्स् प्लूरल् कश्चन मीन्स् सिङ्गुलर्
महोदय earlier sentence we had ekada sudhirah nagaram gacchati then here we have ekah vanarah sudhirasya whatever what is the usage difference in ekada and ekah?
Ha, ekada ityukte once upon a time. So once.
Oh, okay, okay.
Sudiraha, once. Ekah means here. Here it is one ityukte. It is not once, but one. The number one. That is what the count. That is what we are referring to. Ekah. So we will also come across these kind of usages. Okay. We will see if we have this in Abhyasa Pustakam or not. But if it is not there, probably we'll come across these kind of words in our advanced classes. Anyway. Astu. Ekah vanarah sudhirasya samipam agachati. Ekah vanarah. So if it is Sita, Eka Sita, Ekah Vanaraha, Sudhirasya Samipam Agachati. So one monkey came near Sudhir, correct. Samipam Agachati. So here we had converted this to Agatavan.
Is it right Agatavan or it should be Agachati?
Agachati. Agatavan is like if I want to say it came yesterday, or it has happened, it came, has come. Eka, one monkey has come near Sudhir. So it is every the story. This is now narrated in the present tense. The story is being narrated in the present tense. They are not telling it as a history now. Astu?
No. You have told us to write in the Bhutkalani.
Bhutkalani, in Bhutkala, the usage is Agatavan. समीचीनमस्ति समीचीनमस्ति बहु समीचीनमस्ति अहम् अत्र प्रयोगं कथमस्ति इति अहं वदामि अस्तु वानराः सन्ति वानरः आगच्छति अस्तु सो वानराः आगच्छन्ति सो एकाः So we will have to see if we can use pullinga shabda for ekaha. And instead of ekaha, bahuni, vanaraha. Samipa magachanti. We cannot say ekaha. So, bahuni. So, bahuni, vanaraha, samipa magachanti. Iti upayoga matrasti. Saha petikam pashyati udghatayati. Saha petikam pashyati. Saha ityukte atra sudhirha athva vanaraha.
Vanarah.
Vanarah. Saha itrukte atra vanarah. Vaha. So as per the context, we are understanding it as vanarah. Vanarah petikam pashyati udghatati. Ekam. So now please look at the usage. Ekah vanarah. Ekam shirastram grunnati. So according to the lingam here, yat lingam yat vibhakti. Okay, that is advanced. The How it is being used here, we have to see. It is now Napunsaka Lingam usage, Shirastram. So they have used Ekam. Instead of Ekaha, we have come to Ekam. Ekam Shirastram Grunnati. Shirasi Dharayati. Punaha.
Sir, sir, I am disturbing. Udhatayati, what is the Bhutkalani of Udhatayati?
Udhatitavan.
Okay, sir. Thank you.
So, udghatayati. Ekam shirastram grunhati. Grunhitavan. Shirasi dharayati. We have seen this already. How we have changed it to the astu. Agre. Udghatayati. Punaha vrukshasya upari gachati. Vrukshasya upari. Vrukshasya adaha. Sudhira nidrati, rukshasra upari vanara gachati, upavishati, punaha rukshasya upari. Anye api vanaraha etat pashyanti. Anye api vanaraha, vanaraha etat pashyanti. Te api shirastram ichchanti. Te api shirastram ichchanti. Ataha, ataha. We have used ataha already. Ataha, kutaha. These kind of usages we have seen. Ataha, adaha agachanti, shirastrani dharayanti, vrukshe upavishanti. So they come down, look at wear all of the headgear, and then they go to the top of the tree. Vrukshe upavishanti. सुधीरः जागरितः भवति. नौ हि कम्स् और् हि वेक्स् अप्, जागरितः भवति, हि वेक्स् अप् नौ, हि बिकम्स् अवेक्, दट् इस् वाट् इस् जागरितः भवति. भवति इत्युक्ते टु बिकम्, टु बी, जागरितः भवति. पुरतः पश्यति, पुरतः पश्यति, एक सो हि लुक्स् बेक्, पुरतः पुरतः पश्यति, पुरतः पश्यति. एकम् अपि, अपि मीन्स् अपि हियर् मीन्स् आल्सो, रैट्, वन् आल्सो, वन् आल्सो हेड् गेर् नास्ति, एकमपि शिरस्त्रं नास्ति. सः वानरान्, वानरान् पश्यति, वानरान् पश्यति. सो हियर् वानरान् इस् अगेन् वानरान् द्वितीया विभक्ति, द्वितीया विभक्ति. सो वानरं, वानरौ, वानरान् पश्यति, द्वितीया विभक्ति, बहुवचनं. सः वानरान् पश्यति. सो इट् इस् लाट् आफ् मङ्कीस्. नौ दिस् सः ईस् टु सुधीरः, सुधीरः वानरान् पश्यति. शिरस्त्राणि तत्र सन्ति. सो हि सीस् देट् द हेड् गेर्स् आर् देर् वित् द मङ्कीस्. तत्र वेर् देर् आर् मङ्कीस् देर् द हेड् गेर्स् आर् प्रसेण्ट्. शिरस्त्राणि तत्र सन्ति. सः दण्डं दर्शयति. सो हि सीस् अ ब्रान्च्. सः दण्डं दर्शयति आर् अ स्टिक्. वानराः वृक्षशाखाः दर्शयन्ति. ओके, सो वानराः शोस् द ब्रान्च् आफ् द शाखाः, ब्रान्चस् आफ् द ट्रीस्. सुधीरः शिलाखण्डं क्षिपति, क्षिपति इत्युक्ते वाट् इस् इस् काल्ड् थ्रोस्, क्षिपति शिलाखण्डं, शिलाखण्डम् इत्युक्ते पेबल्स् आर् स्टोन्स्. सुधीरः शिलाखण्डं क्षिपति. वानराः फलानि क्षिपन्ति. सो ही थ्रो स्टोन्, मङ्कीस् थ्रो फ्लवर् फ्रूट्स्, फलानि, फलानि क्षिपन्ति. शिलाखण्डं क्षिपति, फलानि क्षिपन्ति. सो सिङ्गुलर् अण्ड् प्लूरल् बोत् आर् देर् इन् दिस् वन् सेण्टेन्स्. अस्तु, सुधीरः उपायं करोति, उपायं सोचयति, उपायं करोति. सो हि कम्स् अप् वित् अ प्लान्, दट् इस् आर् हि मेक्स् अ प्लान्, उपायं करोति. वानराः अनुकरणशीलाः इति सः जानाति, जानाति. सो दे फालो, द मङ्कीस् फालो वाट् दे डू, हि अण्डर्स्टाण्ड्स्. अनुकरणशीलाः, दे फालो वाट् somebody else does. Anukarana Shilaha iti saha janati. So they are doing mimicking, in fact. They follow or doing what they are, somebody else is doing. Anukarana Shilaha. Right? That is what is Anukarana Shilaha. Or if you say they are exactly doing what we are doing. Anukarana Shilaha iti saha janati. So he comes to know they are doing exactly what he is doing. So Swakiyam Shirastram Bhumokshipati. So he takes his headgear and throws it on to the ground, right? So they are exactly doing the actions that Sudhiraha is doing. That is what Anukarana Shilaha. Astu Sarvyati Vanaraha Shirastrani Kshipanti. So all the monkeys also throw the headgears to the ground. Sudhiraha Sarvani Sangruhananati. So he collects all of them at one place. Shigram अन्यत्र गच्छति. अन्यत्र इत्युक्ते एल्स्वेर्, हि गोस् एल्स्वेर्. शीघ्रं, शीघ्रम् इत्युक्ते वेरि क्विक्लि हि गोस् एल्स्वेर्. सुधीरः सर्वाणि सङ्गृह्णाति, शीघ्रम् अन्यत्र गच्छति. सो अन्यत्र गतवान् इस् वाट् वी हेड् डन् एस् पार्ट् आफ् अवर् एक्ससैज्. सो दिस् इस् वाट् द स्टोरी इस् आल् अबौट्. सो आल्सो वेन् वी आर् ट्रैङ्ग् टु डू दिस्, प्लीस् टेक् अ नोट् आफ् हौ दि lingam and bahuvachana rupams are being used with respect to the subject here. Same thing would have been done as part of our bhutkala rupani upayoga. Astu, so that is the story here. Next one that we will try to do today is the sambodhana rupani, and then we will try to do यदि तरिहि सो वी विल ट्राई टू डू द अभ्यास पुस्तकम इटसेल्फ टुडे सो फॉर संबोधन रूपाणि राइट सो आई थिंक वी हैव कवर्ड दिस वन्स
महोदय महोदय दिस स्टोरी कैन वी आर सपोज्ड टू डू इट इन भूतकाल कैन वी डू इट वन्स इन भूतकाल प्लीज
अस्तु भगिनी
थैंक यू
आम सो कश्चित् बालकः अस्ति विल बिकम आसीत् नॉट राइट इट विल बिकम आसीत् अस्ति इज आसीत् राइट तस्य नाम सुधीरः एकदा सुधीरः नगरं गतवान् नगरं गतवान् गच्छति विल बिकम गतवान् अस्तु सिमिलरली शिरस्त्राणि क्रीणीतवान् क्रीणाति विल बिकम क्रीणीतवान् अस्तु क्रीणीतवान् अग्रे तेषां विक्रयणार्थं ग्रामं गतवान् सः ग्रामं गतवान् मार्गे अरण्यम् आसीत् अस्ति विल बिकम आसीत् सुधीरः श्रान्तः अभवत् भवति विल बिकम अभवत् सः वृक्षस्य अधः उपविशतवान् सॉरी व्हाट इज दिस उपविष्टवान् नॉट उपविशति उपविष्टवान् दिस इज उपश विल बिकम उपविष्टवान् देन वी हैव शिरस्त्रपेटिकां पार्श्वे स्थापितवान् तत्र एव निद्रां कृतवान् कर् विल बिकम कृ इन भूतकाल आई विल बिकम कृ कृतवान् सो दिस इज ऑल how these changes are happening these are explained in detail in Panini's Ashtadhyayi lot of rules are there so almost 4000 rules are there so if you would like to understand them and how each of these words why it is kar and why it is becoming kr krutavan and what is the reason behind this why the letters are being chosen like this why not only kru but why not kri akki all these has been explained it seems in Ashtadhyayi Panini's Ashtadhyayi so all these rules are explained there why these letters have been chosen in this fashion right so everything has been done very logically everything has been done very logically so people who are interested please
yes any doubt no doubts Mahodaya
okay so there is lot of echo I'll try to mute so tatra eva nidram krutavan tatreva nidram krutavan tatra kechana vanarah santi will become asan it will become asan vanarah asan ekah vanarah vanarah ekah vanarah sudhirasya samipam agatavan agatavan sah petikam drushtavan pashyati will become drush so it will become drushtavan pashyati will become drushtavan udghatitavan udghatayati will become udghatitavan ekam shirastram grunhitavan Shirasi dharitavan. Shirasi dharitavan or it should be something. Well, let me think about it one second. Dharitavan or...
it may be dhrutavan.
Dhrutavan because dhar, it is dhar. Dhar will become dhru. I have to check this once. Dhar will become dhru, but dharayati will become R. R will become... One second, I have to think about it now.
Kotopi grihitavan.
Dharayati will become...
it won't be grihitavan.
Bhagini, grihitavan is dhrutavan only, na? Shirasi dhrutavan. Dhrutavan, punaha, here ekastra shirasam, ruhitavan is done but the next word sirasi
dharayati
ha dharayati ha धृतवान् पुनः वृक्षस्य उपरि गतवान् उपविष्टवान् वृक्षस्य उपरि गतवान् उपविष्टवान् अन्ये अपि वानराः एतत् दृष्टितवन्तः अन्ये अपि वानराः एतत् दृष्टवान् विल् बि सिङ्गुलर् दृष्टवन्तः विल् बिकम् प्लूरल् फार् मास्कुलैन् जेण्डर् दृष्टवन्तः वानराः एतत् दृष्टवन्तः ते अपि शिरस्तरम् इच्छन्ति
इच्छितवन्तः
न न न न इच्छितवान् एकं निमिषं महोदय दिस् वन् इच्छन्ति इस् नो दिस् वी हाव् टु चेक् वन्स् इच्छन्ति इच्छितवन्तः बट् इच्छितवन्तः looks like the I'm not sure I have to check this one not able to recall rightly now Chanti will change to something else
you can whatsapp the right one to us sir later
astu bhagini astu I'm just trying to recall it will not be ichchitavanta ishtavantah probably
Ishtavan is singular, so Ishtavantaha may be the plural.
Yes, Ishtavantaha, yes, Ichha, so yes, Ishtavantaha, Te api Shirastaram Ishtavantaha, Adaha Agatavantaha, similarly Shirastrani Drutavantaha, Dharayanti will become Drutavantaha, Vrukshe Upavishtavantaha, उपविष्टवन्तः विशन्ति विल् बिकम् विष्टवन्तः वृक्षे उपविष्टवन्तः सुधीरः जागरितः अभवत् भवति विल् बिकम् अभवत् पुरतः दृष्टवान् एकम् अपि शिरस्त्रं नासीत् अस्ति इस् बिकमिङ्ग् आसीत् सो नास्ति विल् बिकम् नासीत् सः वानरान् दृष्टवान् सः वानरान् दृष्टवान् शिरस्त्राणि तत्र आसन् सन्ति विल् बिकम् आसन् सः दण्डं दर्शयति सः दण्डं दृष्टवान् दर्शयति या दृष्टवान् अस्तु देन् वानराः वृक्षशाखाः दृष्टवन्तः सो द मूमेण्ट् ही सीस् दिस् दे हाव् सीन् द वृक्षशाखाः दृष्टवन्तः सुधीरः शिलाखण्डं क्षिपितवान् क्षिपति विल् बिकम् क्षिपितवान् वानराः फलानि क्षिपितवन्तः सुधीरः उपायं कृतवान् वानराः अनुकरणशीलाः इति सः ज्ञातवान् जा विल् बिकम् ज्ञातवान् सः स्वकीयं शिरस्त्रं भूमौ क्षिपितवान् सः स्वकीयं शिरस्त्रं भूमौ क्षिपितवान् सर्वे अपि वानराः शिरस्त्राणि क्षिपितवन्तः सुधीरः सर्वाणि सङ्गृहीतवान् शीघ्रम् अन्यत्र गतवान् सो दिस् इस् विल् बि द रूपम् आफ् ईच् आफ् दीस् वर्ब्स् इन् द पास्ट् टेन्स् आर् दि दे विल् बि द भूत्कालरूपाणि आफ् द गिवेन् वर्तमानकालरूपशब्दः शब्दाः Similarly, we can do this for Bhavishyat Kalaha. Astu? So, Asti Bhavishyati. Okay, we have not seen Bhavishyati, right? Okay, Astu. Upavishyati, Upasthapayishyati. So, that is how it will be. Asti will become Bhavishyati. We have not seen Bhavishyat Kalaha, yes.
So what will be, excuse me, sir. What will be the Rupam for Darshayatarshayati? भूतकालरूपं
भूतकाल दृष्टवान् ओन्लि दर्शयति दृष्टवान् पश्यति दृष्टवान्
ओके फॉर बोथ इट इज द सेम थिंग
दृष्टवान् वी कैन यूज बट इफ देयर इज एनी स्पेसिफिक चेंज आई विल एनीवेज कम बैक ऑन इट लेट मी आल्सो लाइक बिकॉज़ यू हैव आस्क्ड इट बट आई थिंक बोथ ऑफ देम दर्श एंड पश्य आर बोथ मींस सी ओन्ली बट लेट मी सी इफ देयर इज एनी डिफरेंस आई विल आल्सो चेक वंस आई एम नॉट एबल टू रिकॉल राइट नाउ
ओके सर, थैंक यू.
अस्तु भगिनि. अस्तु, सो दीस् आर् सम् आफ् द रूपम् एण्ड् नेक्स्ट् वन् ओके, विल् स्टार्ट् वित् दिस् देन् विल् गेट् इन् टु भविष्यत्कालरूपाणि. भविष्यत्कालरूपाणि वि केम् अक्रास् यू आफ् देम् रैट् लास्ट् वीक्. सो ऐ थिङ्क् वि हव् कम्प्लीटेड् ओके, यस् वि हव् कम्प्लीट् लेट्स् डू दिस् आल्सो टुडे. We'll quickly revise all of this. This one we didn't do it. So next, Indira Bhagini, are you there?
I'm there.
Bhagini, can you please read the instructions of these?
Okay. 11.E, right?
Haan, Bhagini.
Etat drishtva kaha katha कुत्र आसीत् इति लिखतु.
अस्तु, सो वी हैव हां भगिनी, प्लीज गो अहेड.
ओके, संदीपः विद्यालयः. संदीपः दशवादने विद्यालये आसीत्. दिव्या एकदशवादने क्रीडाङ्गणे आसीत्. कृष्णः द्वादशवादने गृहे आसीत्. अहं सप्तवादने ग्रन्थालये आसम्.
अहम् अस्तु, समीचीनं.
वयम् अष्टवादने वित्तकोषे आसि.
समीचीनं, समीचीनम्. अस्तु, सो दिस् वी हेव् कम्प्लीटेड्. दिस् वास् आल्सो पार्ट् आफ् अवर् होम् वर्क् 12.1. अस्तु भगिनि, केन् यु प्लीस् रीड् देम् अलौड् विशेषरूपाणि हियर्.
ओके, विशेषरूपाणि पिबति पास्यति ददाति दास्यति जानाति ज्ञास्यति शृणोति श्रोष्यति लिखति लेखिष्यति मिलति मेलिष्यति पृच्छति प्रक्षयति त्यजति त्यक्षयति शक्नोति शक्षयति उपविशति उपवेक्ष्यति उत्तिष्ठति उत्थास्यति गृह्णाति
ग्रहिष्यति. आं भगिनि, समीचीनं भगिनि, बहु समीचीनं. सो प्लीज् नोट् दिस्, दीस् आर् स्पेशल् वर्ड्स् एस्पेशलि फार् the way they are being used in bhavishyatkala rupani. They are changed before we get into Panini's class. If you are attending the Panini Vyakarana class, probably you would have come across why they are being used in this forum. But if you are not attending any of the advanced classes, probably we would have to kind of, you know, note these differences, because unless and until we get into the Panini's or the grammar rules, this will be a little bit of kind of memory. We have to use our memory in order to remember them. So the more we use, we will be able to get a grasp of them. But otherwise, if you are attending Panini Vyakarana classes or advanced classes, these are kind of explained there, why the change forms happen with respect to the usage in different tenses. Okay, so we have done this. नेक्स्ट् वन् इस् सम्बोधन रूपाणि. उषा भगिनी,
अस्तु महोदय. आम् अस्मि.
आं भगिनि, एतत् कोष्टक इति इस् इट् बेटर् भगिनि, एनि एनि पयनि च.
यस् महोदय. रामः कृष्णः गोविन्दः गौरी मित्रम् इत्यादीनां सर्वेषां शब्दानां सम्बोधनरूपाणि भिन्नानि भवन्ति.
सो भवन्ति इस् दि बहुवचनरूपं.
बहुवचनरूपं फार् भवति.
बहु समीचीनं भगिनि, बहु समीचीनम्. अग्रे
यथा रामः राम, कृष्णः कृष्ण, गोविन्दः गोविन्द, हरिः हरे, गुरुः गुरो, राजा राजन्, महाराजः महाराज, महोदयः महोदय, पिता पितः, सीता सीते, रमा रमे, मान्या मान्ये, गौरी गौरी, भगिनी भगिनी, लक्ष्मी लक्ष्मी.
भगिनी भगिनी एकनिमिषं भगिनी भगिनी अत्र see whenever you are trying to read this ikaranta dirgha ikaranta spend some 1 second additionally because bhagini bhagini both are we are pronouncing the same so it is bhagini bhagini, lakshmi lakshmi
lakshmi, amba amba, mata matah.
Bahu samichinam bhagini. Astu. So some of the things if you see these are essentially the way we try to address people. This we had covered in one of our initial classes, so we'll quickly complete this exercise. Bhagini, Usha bhagini, please try to complete this exercise as well.
Mitra bhavan kutra gacchati.
Bhagini ekavaram atra kim iti asti ekavaram pat
sambhashane riktani sthanani आवरणे दत्तानां शब्दानां सम्बोधनरूपैः पूरयतु. बहुवचनरूपं वि हव् टु
न न एतस्मिन् सम्भाषणे रिक्तानि स्थलानि, रिक्तानि स्थलानि मीन्स् फिलिन् द ब्लाङ्क्स् आर् गिवन् स्थलानि, आवरणे मीन्स् दट् आवरणे दट् इस् गिवन् दत्तानां शब्दानां इन् द ब्राकेट् सम्बोधनरूपैः. सो यु हाव् टु चेञ्ज् दट् एण्ड् पुट् इट् इन् दि सम्बोधनरूपं रूपैः. सो दिस् इस् अगेन् बहुवचनरूपं रूपैः पूरयतु. पूरयतु इस् अगेन् लोट् लकार, इट् इस् नाट् लट् लकार, इट् इस् लोट् लकार. पूरयतु
अत्र आगच्छतु भगिनी, इट्स् गिवन्.
समीचीनं.
कृपया एतत् पाठयतु. मान्या मान्य
मान्ये मान्य मान्ये
मान्ये मान्ये
आम्
मान्ये. कोलाहलं मा करोतु. कृष्णः कृष्ण
कृष्ण
कृष्णः कृष्णः. So it should be Krishna.
Krishna. So we are, we should not say Krishna. Krishna. So Krishna. Aam Bhagini.
Bhavati api agachati va. Lakshmi is given. So Lakshmi. Lakshmi.
Bhagini, Bhavati. Here, see Lakshmihi. You have to pronounce it as Lakshmihi.
Lakshmihi.
The word.
Lakshmihi. So Lakshmi bhavati api agachati va.
समीचीनम्.
आगच्छतु, आपणं गच्छामः. गौरी गौरी आगच्छतु, आपणं गच्छामः.
गच्छामः भगिनी अगेन् गच्छामः
गच्छामः. किञ्चित् सारं परिवेषयतु. अम्बा अम्ब, किञ्चित् सारं परिवेषयतु. भवती किमर्थं किमपि न वदति? Radha is given. So Radhe. Radhe.
Iti abhavat. Iti abhavat.
Bhavati kimartam kimapi na vadati. Then dure upavishya duradarshanam pashyatu. Lata. Late dure upavishya duradarshanam pashyatu. Kimartam roditi bhavati nalini. Nalini. किमर्थं रोदिति भवति?
हा समीचीनं भगिनि. सो होप् आल् आफ् देम् आर् क्लियर्. एनी आफ् दि वर्ड्स् इफ् यु इफ्
किञ्चित् सारं परिवेष्टु इत्युक्ते
इत्युक्ते पुट् सम् सारं रसं सर्व् लिटिल् मोर् किञ्चित् मोर् किञ्चित् सारं लिटिल् नाट् लिटिल् मोर् लिटिल् ओन्लि लिटिल् सर्व् सर्व् मी सर्व् प्लीस् सर्व् सो इट् इस् लोट् लकार परिवेषयतु लोट् लकार. सो आगच्छतु पाठयतु करोतु परिवेषयतु पश्यतु and purayatu, all these are lot lakara rupams of the given words. Pashyati pashyatu, purayati purayatu, similarly karoti karotu, paathayati paathayatu, agacchati agacchayatu. Astu, so this is how they are changed into lot lakara rupam. That is what will be the rupams of these words. Similarly, next we have Yadi Tarhi. Yadi Tarhi, we will try to do this. And did I share the Vibhakti table so far? Because I think it is good time we start getting into Vibhaktis also. So if you have any book like Shabdamanjari or Rupachandrika, then it is okay. You can start learning one of the Vibhaktis. If it is not there, I'll also share the Vibhakti tables for some of the words. So we will start learning them, at least one word, complete Vibhakti. Ramah, Ramah.
Shabdamanjari or which one?
If you are Shabdamanjari, any Shabdamanjari is okay. As long as we have the words written in Sanskrit or any translated language, so that is okay. Or if you have
Rupachandrika. And other book what?
Rupachandrika.
Okay.
Rupachandrika. The Rupachandrika will have all the dhatus and also the pratipadikas. So this book is also, it is a very short book, but you can also get other versions. You can refer any of this Rupachandrika or Shabdamanjari to get started. I'll also share one sheet so that we'll also get into the Vibhakti tables. We'll, whenever we find time, we will also complete some words or the Vibhaktis for some of the words, at least Ramaha, Vanam, Rama and some other different words like Rajan and some Kriyapada Rupams for present tense, past tense and future tense. So that is what we'll do, Lat Lakara, Lut Lakara and other Lakaras. So we'll try to do that for some of the verbs also. That is not there in Abhyasa Pustakam. This we'll try to do whenever we find time, as and when we complete something, we'll try to do that as well. Astu. So anybody is going to attempt any of these exams that are coming up, are you aware of any of the exams for Sanskrit?
No, sir. No, sir. No.
Okay, so okay, Samskrita Bharati conducts exams every year. Once, if it, I know about India, I am not really sure about how it is done in US and UK. India every February and every August, every year, twice it is being conducted. There are four levels of exams for Samskrita Bharati. If you wish to complete them, they are called as Parichayaha, Praveshaha, Parichayaha, Siksha and Kovida. So all that we have covered so far will be covered as part of first exam. So if you wish to write them also, you can go ahead and register, but they will be held in February and August every year. So first level is Praveshaha, then we have Parichayaha, then we have Siksha, then we have Kovidaha. So all the aspects of grammar will be covered in detail there and they will be tested. It will be an 100 marks paper. Every paper is 100 marks. And it will be a written exam. And because of the COVID scenario, this August it was conducted online. So they are also conducting it online. So in February, if you wish to register, reach out to any of the centers that are nearby. If you are in India, you can reach out to Samskrita Bharati. It is present in every state. Almost every state, Samskrita Bharati is available. And you can write the exams for it. So that every 6 months, we will be able to come. In 2 years, if we are writing it for every 6 months, we will be able to complete all these four levels. and our Sanskrit grammar and also the Panini grammar class. Swaroop Mahodaya, who is conducting the Panini grammar class, please attend them. If you are wishing to take the advanced level classes also, they will be helpful a lot. They are very helpful as well. It will clear a lot of the concepts that we are learning, and some of the learned teachers are actually taking those classes. So, and again, these classes are also
sir, what is the question for this exam?
For this exam, if you are completing Abhyasa Pustakam and if you know Vibhaktis are also tested in the first level. So portion is like in specific. If you want, I can send it later. Everything we'll have stories also. Stories will also be there. There will be a reading comprehension. We would need to know the verb forms. We would need to know the vibhakti forms of the words. That is all that will be tested, and certain prose and poetry questions will also be there. That is how the exam will be.
Sir, it will be better to if you will send this book or portion or something.
Portion I can send, the local contact for Samskrita Bharati, we need to reach out to them. If you are in India, I can send some of the addresses where you can directly post them the questions, and they will respond.
Sir, I am in Pune.
You are in Pune. Okay, so yes, I'll send you the contact numbers there, and you can reach out to them. If you can try to reach to Bangalore, they will send you the related book also. I think they are charging 300 or 500 rupees per exam.
Okay, sir. Thank you.
So that is about it. And for US people, there is Samskrita Bharati USA, which does this. If you would like to take the exam for that, you can also reach out to them, Samskrita Bharati USA. Please search that in Google. I can send you some contacts also. I can send you the links of how to reach them in US. So the material and everything, they will send it by post. And this year, Samskrita Bharati in India, they conducted the exam online. So we need not go to the center as well. If the COVID situation persist, if it is going to be like this for next 6 months also, then we can write the exam from our residence itself. So that is the one aspect of it, how to go to the next step after we complete our Abhyasa Pustakam. Astu. So we here have next part is Yadi Tarhi. So next, Premlata Bhagni Astiva.
Aam.
Bhagni Etat Vakyam Iti Patatu. अनन्तरं
यदि तर्हि
ओके
वाक्यद्वयं लिखितमस्ति यदि तर्हि इति योजयित्वा एकं वाक्यं कृत्वा लिखतु
एक्स्क्यूज़ मी महोदय व्हाट इज़ इट ऐ कैनॉट अंडरस्टैंड
वील नो प्रॉब्लम भगिनि यू डिड नॉट अंडरस्टैंड वी विल एक्सप्लेन दैट बट वील फर्स्ट रीड इट हाउ इट इज़ यूज्ड एंड देन वी विल ट्राई टू सी व्हाट इट मीन्स अस्तु
श्रूयते वा
प्रेमलता भगिनी श्रूयते भगिनि
ओके विद्युत् अस्ति दीपः ज्वलति यदि विद्युत् अस्ति तर्हि दीपः ज्वलति इति एक्साम्पल् स्नानं न करोति शरीरं मलिनं भवति यदि स्नानं न करोति तर्हि शरीरं मलिनं भवति इति
समीचीनं भगिनि बहु समीचीनम् उपयोगं कथम् अस्ति इति बहु समीचीनं वदति अत्र सो वि विल् रीड् दिस् अत्र वाक्यद्वयं लिखितम् अस्ति सो इत्युक्ते
सेण्टेन्स् इस् रिटन्
न न न अत्र वाक्यद्वयं लिखितम् अस्ति अत्र इत्युक्ते हियर् सर् अस्तु बहु समीचीनं टु सेण्टेन्सस् आर् रिटन् वाक्यद्वयं टु सेण्टेन्सस् लिखितं रिटन् अस्ति प्रेसेण्ट् यदि तर्हि इति योजयित्वा योजयित्वा इत्युक्ते यूसिङ्ग् अथवा जायिनिङ्ग् एकं वाक्यं कृत्वा कृत्वा हियर् वी हेव् नाट् कवर्ड् कृत्वा लिखतु वाक्यं कृत्वा मीन्स् do or to be done. That is what krutva means. It is actually to be done and write. Likhatu, likhatu ityukte write. We have not seen the krutavan. We have not seen krutva. Tavatu we have seen swa. Swa we have not seen so far. Once we see that, this word also we will understand what it means. Ekam vakyam krutva likhatu. Astu vidyut asti deepah jwalati. So vidyut asti deepah jwalati. So what does it mean? Now we have to join this using yadi and tarihi. Using yadi and tari. And how is the example has been given? Yadi vidyut asti tarihi deepah jwalati. Ityukte yadi vidyut asti, if there is electricity, tarihi means then deepah jwalati. Okay, tarihi deepah jwalati, then or in that case the bulb will glow or there will be a light. That is what it means. Yadi vidyut asti tarihi deepah jwalati. Astu. Next sentence was snanam na karoti shariram malinam bhavati. Yadi snan, so we have to join this using yadi tarihi. If you do not take a bath, then your body is going to become malinam means what is malinam, the right word?
Dirty.
Shariram malinam bhavati. Your body is going to become dirty. That is what it means. So if you are not going to bathe, that is what snanam. Malinam is not disease. Actually here it is like it is going to kind of decay. That is what it might imply, but disease no. Malinam is actually getting dirty. Shariram malinam bhavati. स्नानं न करोति चेत् शरीरं मलिनं भवति. यदि स्नानं न करोति तर्हि देन् द बाडि विल् बिकम् डर्टि, मलिनं भवति. इफ् यु आर् नाट् मेण्टेनिङ्ग् इट् प्रापर्ली इट् बिकम्स् डर्टि. दट् इस् वाट् मलिनं हियर्. तर्हि शरीरं मलिनं भवति. अस्तु अग्रे प्रेमलता भगिनी.
श्रूयते वा?
श्रूयते भगिनि.
कार्यालयस्य विरामः अस्ति. एकवाक्यं चलनचित्रं पश्यामि इति अन्यवाक्यम् अस्ति. यदि तर्हि यदि कार्यालयस्य विरामः अस्ति तर्हि चलनचित्रं पश्यामि.
समीचीनम्. इत्युक्ते
when there is a holiday for the office, then I can watch movie.
Samichinam bhagini. Astu bhagini, agre bhagini.
Atma vishwasah asti sarva sulabham bhavati. Yadi atma vishwasah asti tarhi sarvam sulabham bhavati. Means when confidence is there, if yadi means if confidence is there, then everything will be easy.
Sulabham bhavati. Bahu samichinam bhagini. Agre bhagini.
Sarve satkaryam kurvanti deshasya unnatihi bhavati. Yadi सर्वे सत्कार्यं कुर्वन्ति तर्हि देशस्य उन्नतिः भवति. मीन्स् इफ् आल् डू सम् गुड् थिङ्ग्स् देन् कण्ट्रीस् प्रोग्रेस् विल् बि देर्. कण्ट्री प्रोग्रेस्
देशस्य उन्नतिः भवति. कण्ट्रि विल् प्रोग्रेस्. समीचीनं.
मूल्यं न्यूनम् अस्ति, फलानि क्रीणामि. यदि मूल्यं न्यूनमस्ति तर्हि फलानि क्रीणामि इत्युक्ते इफ् इफ् द प्रैसस् आर् लो देन् will buy, will buy fruits.
Samichanam.
Is it all right?
Samichanam, Bani. If the price is low, then we will buy the fruits. Samichanam.
Bhavati vipanim gacchati, ahamapi agacchami. Yadi bhavati vipanim gacchati, tarhi ahamapi agacchami. If you go to the market, then I will also come.
Samichinam bhani. Bahu samichinam. Astu.
Because api is there, I have to use also, no?
Haan, samichinam. Aham api yukte also. Tarhi aham api agachami. Samichinam. Astu bhagini.
Okay.
Dhanyavada. Agre tangam bhagini.
Asmi mahodaya. Bhavan na patati. परीक्षायाम् अतीर्णः न भवति उत्तीर्णः उत्तीर्णः न भवति
उत्तीर्णः भगिनि
उत्तीर्णः उत्तीर्णः न भवति यहि भवान् न पठति तर्हि परीक्षायाम् उत्तीर्णः न भवति इफ् यु आर् नाट् रीडिङ्ग् प्रापर्लि यु विल् नाट् पास् इन् दि एक्साम्
समीचीनं बहु समीचीनं
ओके छात्राः न सन्ति कथं पाठं करोमि यहि छात्राः न सन्ति तर्हि कथं पाठं करोमि if the students are not there, can we
how will you study?
How will you study? Okay, how will you study? Okay. Lokayanam vegen na gacchati samaye tatra na प्राप्नुमः यहि लोकायानं वेगेन न गच्छति तर्हि समये तत्र न प्राप्नुमः इफ् द बस् इस् नाट् गोयिङ्ग् फास्ट् वी विल् नाट् रीच् द प्लेस् इन् टैम्
बहु समीचीनं भगिनि बहु समीचीनं अस्तु भगिनि वुड् यु लैक् टु रीड् द नेक्स्ट् वन् एस् वेल् ट्रै टु अण्डर्स्टाण्ड् वाट् इस् बीङ्ग् गिवन्
च एव इति अपि एतत् सम्भाषणां पठतु एतत् सम्भाषणां पठतु
सम्भाषणं
पठतु भोः मित्र कुत्र गच्छति भवान् प्रवासार्थं गच्छामि प्रवासार्थं गच्छामि सो वाट् इस् प्रवासार्थं
इन् आर्डर् टु ट्रावेल्
ओके के गच्छति अहं श्रीनिन्दिः श्रीनिधिः भास्करः विमला च गच्छामः मेखला अपि आगच्छामि इति उक्तवती सा आगच्छति वा न वा इति न जानामि सा न आगच्छति एव भवान् कथं जानाति तस्याः गृहे कोऽपि कार्यक्रमः अस्ति अतः सा प्रवासार्थम् आगन्तुं न शक्नोति एवं वा कः कार्यक्रमः तस्याः भ्रातुः जन्मदिनम् तर्हि सा न आगच्छति एव वयं गच्छामः
अस्तु भगिनि सो केन् यू अगेन् कम् बेक् अण्ड् एक्स्प्लेन् ईच् आफ् दीस् वर्ड्स् आल्सो
ऐ विल् ट्रै महोदय बट् मोस्ट् आफ् द सेण्टेन्सेस् ऐ हविन्ट् अण्डर्स्टुड्
अस्तु भगिनि वी विल् डू इट् टुगेदर्
ओके भोः मित्र कुत्र गच्छति भवान् hello friend where are you going gachati okay pravasartham gachami
pravasartham ityukte
pravasartham don't know sir
for traveling for going somewhere traveling.
Okay. के गच्छन्ति हू आर् आल् गोयिङ्ग् अहं श्रीनिधिः भास्करः विमला च गच्छामः सर् मी श्रीनिधि भास्कर विमला आर् गोयिङ्ग् गच्छामः all of us
and it means and
mekala api agachami idi utkavati so it is ita plus ka
ha ka plus ta so ka is half so uktavati
okay uktavati sa agachati va na va iti na janami
okay bhagini
sir what is that
ha mekala is the name mekala api ityukte
also
समीचीनम् आगच्छामि विनो मेखला अपि आगच्छामि इति उक्तवती मेखला अपि आगच्छामि इट् इस् नाट् सेङ्ग् आगच्छति बट् इट् इस् सेङ्ग् आगच्छामि सो शी इस् सेङ्ग् मेखला अपि आगच्छामि इति इत्युक्ते इस् वाट् इति शी सेड् इति सो मीन्स् दिस् आर् दिस् इस् वाट् शी सेड् उक्तवती सो मेखला अपि आगच्छामि इति उक्तवती
उक्तवती मीन्स् वाट् सर्
उक्तवती सो उक्तवान् उक्तवती शी सेड् पास्ट् टेन्स् शी सेड् पास्ट् टेन्स् मेखला आल्सो सेड् शी विल् कम् इति आल्सो इस् अपि इति मीन्स् शी सेड् दिस् इस् वाट् इट् इस् इति उक्तवती शी हेड् टोल्ड् शी टोल्ड् मी यस्टर्डे आर् संथिङ्ग् लैक् दट् देन् सा आगच्छति वा न वा मीन्स् शी इस् गोयिङ्ग् टु कम् आर् नाट् कम् इति न जानामि सो वेदर् शी इस् गोयिङ्ग् टु कम् आर् नाट् गोयिङ्ग् टु कम् दिस् ऐ डोण्ट् नो इति इति न जानामि अस्तु सा अगेन् वि आर् सेङ्ग् शी सा न आगच्छति एव मीन्स् हियर् ओन्ली she is not going to come only. She is na agachati eva. Bhavan kaha katham janati. So how do you know katham janati? Tasyah gruhe kopi karyakrama asti. Kopi means kaha api. There is some also. There is some program also. There is some program also. Tasyah gruhe. What is tasyah? At her house. At her of our home or at our house. Kopi karyakrama asti. कहा अपि कार्यक्रमः अस्ति अतः सा प्रवासार्थम् अतः अतः मीन्स् दट् इस् वै सा प्रवासार्थं प्रवासार्थं फार् ट्रावेलिङ्ग् आगन्तुं कमिङ्ग् न शक्नोति इस् नाट् गोयिङ्ग् टु कम् न शक्नोति इस् नाट् गोयिङ्ग् टु कम् आर् इट् इस् नाट् पासिबल् फार् हर् टु कम् आगन्तुं न शक्नोति दट् इस् वै इट् इस् नाट् पासिबल् फार् हर् टु कम् एवं वा इस् दिस् वै कः कार्यक्रमः विच् वाट् इस् द प्रोग्राम् तस्याः भ्रातुः जन्मदिनं भ्रातुः इत्युक्ते ब्रदर्स् भ्रातुः ब्रदर्स् जन्मदिनं जन्मदिनम् इत्युक्ते बर्थ्डे 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 तर्हि तर्हि सा न आगच्छति एव vayam gachhamah vayam gachhamah so she sata na gachati only she is not going to come only vayam gachhamah vayam ityukte we all will go
we will go
it is not we all will because it is not going to be we will go it is like in present tense vayam gachhamah
sir
ammaudya Ravindra Mohade, you wanted to say something? Bhagini, Shrunotu, va? Tangam Bhagini?
Sir, Bratu is the Shashti Vibhakti, no?
Shashti Vibhakti, Bratuhu. Birthday of her brother. Tasyaha Bratuhu. Here, as you said, it is Shashti Vibhakti of her brothers. Brothers' birthday. Tasyaha Bratuhu, Janmadinam. Bhrata, so we have not seen this word.
Tasyai is Shashti Vibhakti.
No, Tasyai is also Shashti Vibhakti. Tasyaha Bhrata, Bhratuhu Janmadinam. Astu. So this is how, so we have seen here. Cha means and, eva means only. Iti, this is what it means for iti. Api means also, also. Api means also. Also astu so that is how they are being used cha and eva only iti this is what it is or this we are referring to what it is this is what it is being said so iti I think in every Bhagavad Gita shlokam the last line
last sentence last sentence iti Bhagavad Gita
Bhagavad Gita ayam shashti adhyaya saptami adhyaya iti so that is where we'll kind of being said this is what is being said kind of usage will be there in Bhagavad Gita every adhyaya at the end every adhyaya end it will be pronounced this is what it is was said by Lord Shri Krishna or this is what is being said in this adhyaya that it will be used all the 18 adhyayas sir, in Bhagavad Gita yes Maharaj.
Sir in most of our granthas there is the iti iti skanda purane narad purane this sentence is there
iti yes iti is being used very frequently in our scriptures astu amishan astu cha also cha is also used very widely in the shlokas so we'll eva is used but we'll not recognize it Bacha, iti are used widely, we will be able to recognize them quickly. So, Ramaha Lakshmanascha. So, that is how it will come. Ramascha Lakshmanascha. Rama Lakshmanascha. So, or there is another usage also. We will see as we go in the advanced class. So, that is what it means right now.
Mahoday, Api is also. What is Ko Api?
So, Kaha Api? Ko Api? Some. some also, some other karyakrama also is there. Rasyaha guhe kaha api. So we do not know which one. So some karyakrama is there. So also some karyakrama is there. That is what he is saying. Kaha api, kopi. That is what it is happening here. So it is basically a sandhi that is happening here for kopi. So that's usage of two words, kaha and api. I think it is happening kopi. Kaha api, kopi, karyakrama asti. So some karyakrama also is there at her place or at her home, gruhe. Ataha sa pravasartham agantum na shaknoti. Evam va. So he is asking kaha karyakrama. So that is how we understand that kopi is kaha api here. Okay. Evam va. Or if you know sandhi, then we'll anyways know this is kopi is actually joining of two words or two words yojayitva. Kopi abhavat kaha and api kopi karyakrama asti ataha sa pravasartham agantum na shaknoti. Shaknoti not possible. Shaknoti is kind of possibility. That is what shaknomi, shaknoti, when we use shaknoti. Agantum, gantum. So this is actually gach dhatu only, but it is now gantum. Okay, so gantum will be tumun. So if you add tumun pratyaya, just like tavatu that we have seen gatavan, similarly there is agantum, kartum. So that is how they are going to be used as possibility or something that is not going to agantum na shaknoti. So tumun pratyanta, here what is being used, agachati, and tumun pratyanta will become agantum. So not possible for her to come. Ataha sa pravasartham agantum na shaknoti. Evam va, is this the reason? Kaha karyakramaha? What is the program? Tasyaha bratuhu janma dinam. So he, now the answer comes. Why she is not able to come is because there is the birthday of our brothers at our home. So she is not able to come. Tarhi sa na gachati veva. That is why she is not able to come only. Vayam gachcha maha. Let us go. We will go. Is what, or we shall go. We are going. Vayam gachamaha. So here everything, most of the times is used in present tense only. The verbs, all that we see here are in present tense. That is why we see gachati, agachati, agachami, gachamaha, agachamaha. So vayam agachamaha is what? Vayam means we, and gachamaha is plural usage. Gachati, aham gachami, vayam gachamaha. Saha gachati, saha te gachanti. That is how it is going to be used here, and is used everything in present tense. Astu. So similarly, 15.2 exercise is to construct our own sentences. Ete sham upayogam krutva. We have not seen krutva, how this is being used, krutva. Ekam sambhashanam likhatu. Ete sham upayogam. What is this ete sham here? Etesham upayogam krutva ekam sambhashanam likhatu.
This using this cha, eva, iti, iti.
Ika,
using about.
Etesham. Using these already that we have done. That is how Sanskrit is minimizing the expressiveness. Okay. So etesham upayogam krutva. Ekam. So it is not ekaha or eka. It is using ekam. Ekam sambhashanam likhatu krutva, using them, upayogam is using them. Etesham upayogam krutva ekam sambhashanam likhatu, write one conversation. Astu, so that will be your homework. So please try to use the above words and try to come up with a conversation using cha, eva, iti, api, and the choice of your tense, whether it could be present tense or it could be past tense or it could be future tense. All of the three tenses we have seen for about 15 words. We have already seen how they are going to be used. So this is what it is. Next, we have taha and paryantam. How do we use taha and paryantam? Agre, Manjushri Bhagni.
आं महोदय. अत्र नारायणस्य दिनचर्या लिखिता अस्ति, तां दृष्ट्वा वाक्यानि लिखतु. हियर् नारायणस्य षष्ठीविभक्ति नारायणस्य दिनचर्या इस् गिवन् सीङ्ग् देम् कन्स्ट्रक्ट् द सेण्टेन्सेस्.
समीचीनं, तां दृष्ट्वा वाक्यानि लिखतु. समीचीनम्, अस्तु भगिनि, अग्रे.
फ्रोम् 6 AM to 7 AM योगासनं. शेल् ऐ रीड् आल् दिस्?
न भगिनि, अत्र उदाहरणमस्ति तत्र इति पृष्ट्वा.
नारायणः षट्वादने तः सप्तवादने विच् विभक्ति विल् बि यूस् सर्?
सप्तवादनपर्यन्तम्.
ओके, षट्वादनं तः सप्तवादनं पर्यन्तं योगासनं करोति. Is it correct, sir?
सप्तवादनपर्यन्तं, षट्वादने तः सप्तवादनपर्यन्तं.
सप्तवादनपर्यन्तं
योगासनं करोति.
ओके, षट्वादने तः सप्तवादनपर्यन्तं योगासनं करोति. ओके, 7:15 to 8:15. सार्ध अष्टवादनपर्यन्तं
गृहपाठं लिखति. समीचीनम्, अग्रे.
I will just quickly note it down, sir, the thing. I will read. 10:25. Okay. Can you please scroll down, sir? नारायणः दशवादनतः पञ्चवादनपर्यन्तं विद्यालये पठति. नारायणः पञ्चवादनतः षट्वादनपर्यन्तं
क्रीडति.
नारायणः सार्ध षट्वादने तः सार्धसप्तवादनपर्यन्तं अध्ययनं करोति. नारायणः दशवादनतः पञ्चवादनपर्यन्तं निद्रा करोति.
निद्रां
करोति.
समीचीनं, बहु समीचीनम्, अस्तु. अग्रे अपि प्लीज़् डू द फस्ट् टु.
ओके,
आल्सो रीड् द
महोदय.
आं भगिनि, 7:15 सपाद अष्टवादनपर्यन्तम्. ऐ थिङ्क् ऐ टोल्ड् सार्ध फार् बोत् 6:30 and 7:15. यस्, इट् इस् सपाद, इट् इस् नाट् सार्ध. सपादसप्तवादनतः सपाद अष्टवादनपर्यन्तं गृहपाठं करोति. अस्तु भगिनि, बहु सम्यक्. क्षमताम्, अत्र सपाद इत्युक्ते 15, सार्ध इत्युक्ते 30. अस्तु, अग्रे भगिनि.
अत्र कर्णाटकमुख्यमन्त्रिणः कार्यक्रमस्य विवरणम् अस्ति, तत् दृष्ट्वा सः कदा कुत्र तिष्ठति इति लिखतु. हियर् कर्णाटक हियर् चीफ् कर्णाटकराज्यस्य चीफ् मिनिस्टर्स् कार्यक्रम इस् गिवन् विवरणम् इस् लिस्ट् मे बि seeing that where he will be at what when he will be at what place that we have to write.
Samichinam.
January
ekatah sapta paryantam
ekatah sapta paryantam mukhyamantri Bangaluru nagare tishthati. January 8 tah
katah
अष्टतः त्रयोदश पर्यन्तं मुख्यमन्त्री मैसूरुनगरे तिष्ठति.
समीचीनं भगिनि, अस्तु,
धन्यवादः.
अग्रे बहु समीचीनं भगिनि. अग्रे त्रिवेणी भगिनी.
अस्तु महोदय, जनवरी चतुर्दशे तः सप्तदश पर्यन्तं मुख्यमन्त्री
धारवाड नगरे
तिष्ठति. जनवरी अष्टादश तः विंशत्पर्यन्तं मुख्यमन्त्री गुल्बर्ग नगरं तिष्ठति. जनवरी एकविंशत्तः चतुर्विंशत् पर्यन्तं मुख्यमन्त्री कोलार् नगरे तिष्ठति. जनवरी पञ्चविंशत् तः त्रिंशत् पर्यन्तं मुख्यमन्त्री मद्रासनगरे तिष्ठति.
मद्रासनगरे तिष्ठति, अस्तु भगिनि. एतत् एक सम्भाषणम् अस्ति अत्र, अधः एकवारं पठतु.
माला गोपाल् भवतः परीक्षा समीपम् आगता अस्ति. गोपाल् भवतः परीक्षा युवर् एक्साम्स् आर् कमिङ्ग् ऐ मीन् आर् नियर् बै.
समीचीनं भगिनि.
अद्य आरभ्य प्रतिदिनं पठतु. अद्य सो आरभ्य
अद्य इत्युक्ते अद्य इत्युक्ते
अद्य
श्वः अद्य परश्वः प्रपरश्वः ह्यः परह्यः प्रपरयः अद्य भानुवासरः श्वः
सोमवासरः प्रतिदिनं पठतु. स्टार्टिङ्ग् टुडे प्रतिदिनं पठतु. रीड् एव्रिडे, ऐ मीन् प्रिपेर् एव्रिडे.
समीचीनम्. अग्रे
गोपालः, अद्य अहं मित्रस्य गृहं गच्छामि. टुडे ऐ एम् गोयिङ्ग् टु मै फ्रेण्ड्स् प्लेस्. श्वः आरभ्य पठिष्यामि भगिनी.
श्वः मङ्गलवासरः, श्वः सोमवासरः,
टुमारो आरभ्य पठिष्यामि भगिनी. I will start from tomorrow.
I'll start reading from tomorrow.
Mala, bhavatu. भवतु गोपा भवतु गोपाल् विद्यालये योगासनकक्षा कदा आरम्भ भविष्यति
कक्षया
योगासनकक्षया कदा आरभ्य भविष्यति
भवतु मीन्स् भवतु मीन्स्
गुड्
गुड् यस् लेट् इट् बि
ओके गोपाल् विद्यालये योगासनकक्ष्या स्कूल्स् योगासन क्लास् कदा आरभ्य भविष्यति वेन् इट् स्टार्ट् युवर् योगासन क्लास् वेन् इट् विल् स्टार्ट् इन् स्कूल् गोपालः परश्वः आरभ्य भविष्यति डे आफ्टर् टुमारो इट् विल् स्टार्ट् माला परश्वः मम अवकाशः न भविष्यति डे आफ्टर् टुमारो ऐ मै आपर्चुनिटि इस् नाट् देर्
मम अवकाशः इट् मीन्स् ऐ विल् नाट् बि एबल् टु कम् यस् युर् आपर्चुनिटि आर् मै मै अवकाशः मीन्स् मै चान्स् टु कम् ऐ विल् नाट् बि टु बि देर् विल् नाट् बि अवेलेबल् डे आफ्टर् टुमारो
प्रपरत्वः आरभ्य अहमपि योगासनकक्ष्याम् आगमिष्यामि प्रपरश्वः
डे आफ्टर् टुमारो
डे आफ्टर् टुमारो
इट् इस् नाट् डे आफ्टर् भगिनी भगिनी इट् इस् डे आफ्टर् टुमारो
यस् डे आफ्टर् टुमारो शी टोल्ड् शी इस् नाट् इट् इस् नाट् पासिबल् डे आफ्टर् टुमारो इफ् इट् स्टार्ट्स् अहमपि देन् ऐ कुड् योगासनकक्षाम् आगमिष्यामि देन् ऐ वुड् बि एबल् टु कम्
I will also, aham api, it is aham api, so.
Yeah, I will also come, yeah.
Okay.
Gopalaha, bhagini, matulasya patram agatam va. Matulasya patram agatam va. Sister, matulasya patram agatam va did the letter come what do you mean by matulasya
mother's brother mama's brother mama or uncle's matulasya mother's brother matulaha is mother's brother
okay matulasya did I get any letter from uncle mala naiva bo no no respected huh?
no boho no boho means no some naive no. no na eva not only boho yeah. means we are trying to she is addressing him boho
yeah aham parahraha parahyah arambha tasya pariksham krutavati aham parahyah आरभ्य तस्य परीक्षां कृतवती
प्रतीक्षां
ओके प्रतीक्षां कृतवती ऐ एम् आल्सो वेटिङ्ग् फार् इट्
अहं परह्यः आरभ्य परह्यः आरभ्य इत्युक्ते
परह्यः आरभ्य फ्रम् यस्टर्डे ऐ थिङ्क् सो
यः यः शनिवासरः परह्यः शुक्रवासरः
डे बिफोर् यस्टर्डे
परह्यः डे बिफोर् यस्टर्डे आरभ्य
आरभ्यः ऐ एम् वेटिङ्ग् फार् दट्
वेटिङ्ग् फ्रम् फ्रैडे वेटिङ्ग् फ्रम् फ्रैडे अहं परह्यः आरभ्य स्टार्टिङ्ग् फ्रम् फ्रैडे ऐ एम् वेटिङ्ग् फार् द लेटर् आल्सो
ऐ एम् वेटिङ्ग् फार् परन्तु न आगतम्
एव
बट् इट् डिड् नाट् कम् ओन्ली
बहु समीचीनं यस् दट् इस् वाट् इट् मीन्स् आगतम् एव डिड् नाट् कम् ओन्ली अस्तु अस्तु सो एतस्मिन् सम्भाषणे एकं द्वे त्रीणि चत्वारि अत्र रमेशस्य सङ्गीतकक्षाया सङ्गीतकक्षायां पितृवस्य इति परिवर्तनं कृत्वा सम्भाषणं पुनः लिखतु. वाट् डस् दिस् मीन् ऐश्वर्या भगिनी?
आं महोदय.
एतस्मिन् सम्भाषणे
this conversation about Ramas
1, 2, 3, 4 wherever the numbers have been indicated like this 1, 2, 3, and 4 wherever they have been indicated atra ityukte
at that place
atra no atra ityukte what does atra mean
that
atra tatra means there atra means
here
atra ityukte here astu then they are giving us the words rameshasya sangeeta kakshayam what was given earlier yogasana kakshayam these were the words that were given and we had gopalasya or mitrasya we had mitrasya so they are asking us to replace them with rameshasya sangeetakakshaya sangeetakakshyam pitruvasya we had matulasya so now pitruvasya means father's brother pitruvasya iti with these with what is mentioned here iti that is what iti means parivartanam krutva sambhashanam punah likhatu parivartanam means
changing
punaravartanam means revision parivartanam means changing punaravartanam means revision krutva we have not covered means change them after changing them sambhashanam punah sambhashanam ityukte conversation this conversation punah again likhatu ityukte here please write they are asking us to write that is what likhatu please write that is what it means lot lakara that is lot lakara likhatu request agnya purvaka shabda lot lakara iti likhatu that is what they are given here instead of mitrasya use rameshasya yogana kakshaya use sangeeta kakshaya yogana kakshayam sangeeta kakshyam matulasya pitruvasya these words we have to replace wherever the markings are given there and put these words there and write this conversations in this blank that has been provided here that is what we have to do with respect to these sentences so please try to do this if you find time so that is all we have next week we'll do yada tada and then we will see how the first four numbers can be written in all the three lingams first four only fifth one how it is same from fifth number how it is going to be the same ekam dve trini chatvari pancha ekah eka ekam dve dvayam 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 trayah trisrah trini chatvarah chatastrah chatastrah chatvari pancha 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 how these numbers are going to be we'll start this from next week okay and we'll also do tritiya vibhakti is this one where we have hastena then sevana yantrena these are all tritiya vibhakti roopam means with the help of something that is what is tritiya vibhakti roopam and if time permits we will start doing one word vibhakti one vibhakti word also we'll try to do if time permits there is lot to complete before that we will do this astu so any question
no sir
no astu so if there are no questions then we will complete it with the shanti mantram astu om sarve bhavantu sukhinah सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत्। ॐ शान्ति शान्ति शान्तिः। अस्तु, धन्यवादः, पुनः मिलामः अग्रे सप्ताहे, आगामि सप्ताहे।
Happy New Year to everyone.
नमस्कारः महोदय।
धन्यवादः भगिनि, नूतनवर्षस्य शुभाशयाः। नूतनवर्षस्य
शुभाशयाः। Happy New Year महोदय।
धन्यवादः, धन्यवादः,
धन्यवादः महोदय।
धन्यवादः महोदय।
धन्यवादः भगिनि, धन्यवादः भगिनि, धन्यवादः भगिनि, धन्यवादः भगिनि, धन्यवादः महोदय। शुभरात्रिः।